लभे सखिकता सुतैलमपि यत्नतः पीडयन् विवेच्य मृगतृष्णिकासु सलिलम् पिपासार्दितः कदाचिदपि पर्यते शशविषाणमासादये न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत्।